अर्वाग्रथम् विश्ववा आरन्त उग्रेन्द्रयुक्ता सोहरयो वहन्त कीरिश्चिद्धित्वाहवते स्वर्वानृधीमहि सधपादस्ते अद्य रोद्रोणे हरयः कर्माग्मन् पुनानासर्जन्त अभवन् इन्द्रो न अस्य पूर्व्यः पपेयाध्यक्षामरस्य सौम्यस्य राजा आसस्राडासश्यवसा नमच्छेन्द्रम् स चक्रे रथ्या आसो अश्वाः अभिश्रपर्जन्त वहेजुर्नो छिन्नो वाजोरमृतम् विदस्येत वरिष्ठो अस्य दक्षिणामि जर्तेन्द्रो मघोनाम् द्विकोर्मितमः यजा वज्रिवः परिजास्यंहो मघा च धृष्णो दजसे विसूरीन इन्द्रो वाजस्य स्थविरस्य दातेन्द्रो गेर्भिर्वर्धताम् वृद्धमहाः इन्द्रो वृत्रम् हरिष्ठो अस्तु सत्वादासोरिः प्रणतितो तु जानः